सर्वदा सर्वभावेन भजनीयो व्रजाधिपः स्वस्यायमेव धर्मो हि नान्यः कवापि कदाचन। एवं सदा स्म कर्तव्यं स्वयमेव करिष्यति प्रभु सर्वसमर्थो हि ततो निश्चिततां व्रजेत। यदि श्रीगोकुलाधीशो धृतः सर्वात्मनारिदि ततः किं परं ब्रूहि लौकिकैर्वैदिकैरपि। अतः सर्वात्मनां शश्वत् गोकुलेश्वर पादयो स्मरणं भजनं चापि न त्याज्यमति मे मतिः।